कः सुभाषितं पठति? अस्तु, पठतु.
मूर्खचिह्नानि पदति गर्वो दुर्वचनं मुखे, विरोधि विषवादि च कृत्याकृत्यं न मन्यते. मूर्खः ईडियट्, ए फूलिश पर्सन. चिह्नानि क्यारेक्टरिस्टिक्स्, गर्वो प्रैड. दुर्वचनं बैड आर हार्श लैंग्वेज. विरोधी अपोजिंग अदर्स. विषवादी नेगेटिव पर्सन. कृति डीड्स. अकृतै, नॉट डूइंग करेक्टली. ना नॉट मन्यते. लर्न एंड थिंक राइटली.
अर्थं जानाति वा महोदय?
इट इज द सिंबल ऑफ ए फूलिश पर्सन. पर्सन पदति गर्वो दुर्वचन मुखे. We can recognize by his bad words.
Astu. Okay, uttam prayatnam. So it means there are six characteristics in a foolish person, and it lists them out, having ego, thinking negatively, and not thinking through before taking decisions, and so forth, so on. Okay.
Is it shadati or padati? Third word.
Shadati.
I think it should be padati, not shadati. Padati.
No, shadati. Shat.
Shadati.
Okay. Okay.
Vishavati.
Yep. Oh, I didn't write the meaning of that word. Okay. Okay, I'll make sure that. Astu. Uttama. ओके सो अद्यतन पाठ्यक्रमः अस्ति गृहपाठं पुनःस्मरणम् एव. सो द गृहपाठं ऐ गेव् वास् दिस् वीक्स् पुनःस्मरणम् ओर् द वार्म् अप्. सो वर् जस्ट् गोयिङ्ग् टु गो ओवर् द वार्म् अप् ओन्ली, एण्ड् अद्य कथा एव करिष्यामः. सो सिन्स् इट्स् वेलेण्टैन्स् डे एण्ड् एव्रिथिङ्ग्, सो अवर् क्लास् विल् बि लिटल् बिट् शोर्टर् टुडे.
Because of too many young people.
Yeah.
At least young at heart.
Astu bhavati. Yes, and in our class is a little we have only 5 people in our class, right? So
yeah,
we'll just have a nice katha. Okay.
We'll do you both the homework last week and this week also.
Okay. We can do you all want to go over last week's homework too?
Am Bhagini, we'd like to clarify whether it's correct, because we all had different answers for certain
questions. Yeah, we are students.
Okay, Astu. Okay, let me open the Grihapatham and then we'll go over. ओके अस्तु सो द 31st the 31st is the last week's homework. I'll give 2 minutes and then we will go over the answers.
Vini, we already have this. No need time, I guess.
Okay. Astu. Pratham asti parvatam puratah nadyah santi. Kim bhavati? तदनन्तरं लोकायनं बहुजनाः उपविशन्ति लोकयाने बहुजनाः उपविशन्ति उत्तमं लोकयाने विभक्ति किं
सप्तमी
छात्राः विद्यालयेन आगच्छति विद्यालयतः फ्रम् द स्कूल्
आर् विद्यालयात् पञ्चमे विभक्ति
विद्यालयात् अथवा विद्यालयतः किमपि ओके अस्तु तदनन्तरं मित्रेभ्यः स्नेहः रोचते इत्युक्ते किं
पञ्चमे
उत्तम फ्रेण्ड्शिप् वित् फ्रेण्ड्स् इस् एन्जायबल् और् लैकबल् तदनन्तरं विमानात् शब्दः अधिकः अस्ति वेरि गुड् उत्तम ओके तदनन्तरं षष्टि अस्ति द फिश् इस् स्विम् इन् द वाटर्
मत्स्याः
जलेन
तरन्ति
ओके तरन्ति उत्तमं जले अथवा जलेन दो अपि सन्ति बोत् आर् फैन् ओके द किङ्ग् विच् वन्
मीनाः जले तरन्ति
यस् दट्स् फैन् ओके The king gave punishment to the enemies.
Rajan Shatrum Dandayati.
Okay. Shatrum Uttamam. Enemies.
Nripaha Shatrum Dandam Dattavan.
Uttamam. Samyak. Okay. Number 8. The boy is scared of the ghost.
बालकः पिशाचात् भीतः अस्ति
उत्तमं बालकः पिशाचात् भीतः अस्ति अन्तिमं ग्राण्ड् मदर् अण्ड् ग्राण्ड् फादर् विल् कम् फ्रम् बेङ्गलूर्
पितामहश्च पितामही बेङ्गलूरुनगरात् नगरेभ्यः आगमिष्यन्ति
आगमिष्यन्तः
पुनः वदतु केन् यु रिपीट् दट्
पितामहः च पितामही बेङ्गलूरुनगरतः अथवा नगरेभ्यः आगमिष्यन्ति
ओके नगरतः आगमिष्यन्ति उत्तमम् ओके ऐ थिङ्क् देर् वास् नम्बर् 10 वी गो टु द शाप् वित् मदर्
वयं मात्रा सह आपणं गच्छामः
उत्तमं बहु उत्तमम् वयं मात्रा सह आपणं गच्छामः सम्यक् ओके अद्यतन पुनस्मरणम् अस्ति सो डू वी नीड् टैम् फार् दिस् वन् आल्सो
नो भगिनि वी केन् स्टाप्
ओके अस्तु ओके प्रथमम् अस्ति ब्लाङ्क् दक्षिणतः तबलावादकः अस्ति
गायकस्य दक्षिणतः तबलावादकः अस्ति
उत्तमं गायकस्य विभक्ति किं
षष्टि
विभक्ति तदनन्तरं ब्लाङ्क् उपरि पक्षी अस्ति
वृक्षस्य उपरि पक्षी अस्ति.
वृक्षस्य उपरि वृक्षस्य उपरि. सो ऑन टॉप ऑफ द ट्री द बर्ड इज प्रेजेंट. ओके. मधुकरः ब्लैंक शृंगेरीं गतवान्.
मधुकरः बेंगलुरु
नगरे. उत्तम उत्तम. बेंगलुरुतः सुधीरः एकं ब्लैंक करोति.
उपायम्
उपायम्
उपायम्. उत्तम. शंकरः श्वः ब्लैंक न गमिष्यति.
विद्यालयः
विद्यालयं न गमिष्यति. ओके. षष्ठी अस्ति. हे लता सिट फार अवे एंड वॉच टीवी.
लते दूरं उपविशत्य दूरदर्शनं पश्यतु.
आम् उत्तम.
हे लते दूरदर्शनात् समीपं मा उपविशत.
ओके. हेलते हेलते दूरे उपविश्य दूरदर्शनं पश्यतु. समीप मीन्स् नियर् बै.
ओ इट् इस् दूरे उपविश्यस्य भगिनी और् दूरम् उपविश्य
दूरे उपविश्य.
भगिनी केन् यु रिपीट् वन् मोर् टैम्. हेलते दूरे उपविश्य देन्
दूरदर्शनं पश्यतु.
इदि दूरदर्शनं मार् दूरदर्शनात्
न न दूरदर्शनं.
ओके.
वाच् डि टिवि. ओके. नेक्स्ट् वन् सुगन्धा वाश्ड् हेण्ड्स् देन् मेड् फ़ुड्. सुगन्धा हस्तौ अथवा हस्तः प्रक्षाल्य हस्तं प्रक्षाल्य भोजनं करोति. Oh, okay. Then, pakvavati or bhojanam kritavati.
Bhagini, we can use tvanta rupam here.
Okay. Next one.
Bhagini?
Prakshalya is levanta rupam. If you use kritva, then it's tvanta rupam.
How do we say?
सुगन्धा हस्तं प्रक्षाल्य भोजनं कृतवती. और् सुगन्धा हस्तं प्रक्षालनं कृत्वा भोजनं कृतवती.
या दट्स् वाट् ऐ हाव्.
ओके. य कृत्वा दट्स् त्वान्तरूपम्. ओके. फादर् रीड्स् द न्यूस् पेपर्.
जनकः वार्तापत्रं पठति.
उत्तमं. जनकः वार्तापत्रिकां पठति. अस्तु. टु रीड् बुक्स् सरिका वेंट टु द लैब्ररी.
पुस्तकानि पठितुं सारिका ग्रन्थालयम् अगच्छत्.
गतवती.
सरिका पुस्तकानि पठितुं पुस्तकालयम् और् ग्रन्थालयं गतवती. ओके. नेक्स्ट् वन् आन् आल् सैड्स् आफ् द फ्लवर् द कमलं फ्लवर् देर् आर् लीव्स्.
कमलपुष्पं परितः पर्णानि सन्ति.
उत्तमं. कमलं परितः कमलपर्णानि सन्ति. किमपि देर् आर् मेनि
कमलपुष्पस्य
कमलं षष्टि भक्ति वा ओके
नो भगिनी परितः न परितः एण्ड्
उभयतः सो कमलं परितः पर्णानि सन्ति
द्वितीया व्यक्ति कमलं तृतीया व्यक्ति आर् द सेम्
यस् कमलं कमलं परितः पर्णानि सन्ति
कमलं इस् बोत् द्वितीया अण्ड् तृतीया
न न कमलं द्वितीया
पठि तृतीया
कमलेन
सो इट् शुड् बि कमलम् आर् कमलेन परितः आर् कमलस्य परितः
कमलं परितः
द्वितीया व्यक्ति
ओके कुत्रापि प्रश्नमस्ति वा
न भगिनि
ओके अस्तु इदानीं कथां पठामः एकनिमेषम्
Bhagini, can you hear me?
Yes, we can hear you, Mohan.
This is Mohan. Can you hear me? Just making sure.
Yeah, we can hear you, Mohan.
Yeah, okay. Sorry, I'm in my office today, so.
Hello? Hello?
Yes, in the Bhagini.
Oh, can you hear me?
Yes, we can. Hear you in the Bhagini.
Yeah, because I was having trouble, you know. That's why I'm asking.
Yeah, you're good.
Okay, thank you. Thank you, Bhagini. Namaskar.
Okay, I believe we were on page 5 of the story.
I can't see the screen.
Nor can I.
Ek animation. It is showing. Okay. Okay, astu. So I think we're on page 5, is that correct?
It shows 14.
I'm beginning. We have to finish, start with the last paragraph of page 14, moving on to 15.
Okay. Astu, kah patati the last paragraph? Last paragraph now, Yataha, from Yataha. Who would like to read? सूक्ष्मा भगिनी करोति वा
यतः वैकन्तिकराजस्य राजा निष्कारणमेवास्मान् आक्रमति यदि वयम् अस्मत् प्रतिवेशिभ्यः मित्रराज्येभ्यः सहायं प्रार्थयामः तर्हि ते प्रायः कच्चित् सैन्यं प्रेषयन्ति तथापि वयं सम्पूर्णविश्वासेन विचिकित्सया विना अग्रेसराः भवेम इत्युक्तवान् मयूरध्वजः
ओके अस्तु ओके प्रथममस्ति यतः वैकन्तिकराज्यस्य राजा निष्कारणमेवास्मान् सो तत्र अस्ति निष्कारणमेवास्मान् तत्र प्रथममस्ति निष्कारणम् निष्कारणम् इत्युक्ते किम्
विदौट्
एनी रीज़न् एव अस्मान् इति अस्ति अस्मान् वयम् आं बहुवचनं द्वितीया विभक्ति ओके आक्रमति इत्युक्ते किम्
attack.
Occupied.
Attacks.
Attacks begin kimapi. Yadi vayam asmat prati veshibhyaha mitra rajyebhyaha sahayam prathayamaha. So prathayamaha itikte kim?
Request.
Request. Plead. So tarhi te prayah kvachit sainyam preshayanti. So when we
request neighboring kingdom.
Yes. Economization. Okay. So when we so I think this means that we will send out some of our army, then they will also send some of their army.
Friendly neighbors.
Yeah, the neighboring army, right? Our friendly neighbors army.
Friendly neighboring countries.
You take their help.
Yes. Yes. Asmat prati veshebhyaha. So neighboring army will take their help because we have a little army. Tatapi vayam sampurna vishvasena vichikitsaya vina agre saraha bhavema.
What is prativeshya?
Prativeshya is the neighboring. Kripaya mute madhye sthapayatu. Dhanyavadaha. So tatapi, then we will have a complete army and we can fight successfully. Iti vadati mayura dvajaha. Okay. Tanantaram kaha patati?
Aham patami.
Okay, astu, astu, Mohan Mohan. Esha eva?
Esha eva uttamah margaha. Iti matavan raja Vikramasenaha. Mayurdhvajasya chintananusaram mitra rajyanam rajanah yudde sahayam acharitum swasainyam praishayan yuva dhirascha mayuradvajah senam achalayat saha swavachobhihi dhiran yodhan preritavan mayuradvajasya nayakatve swarnadharajena vijayah sampraptah.
Okay, so asti mayuradvajasya chintanusaram mitra rajyanam rajanah yudde sahayam acharitum swasainyam praishayan. So following what Mayuradvaja said, the neighboring kingdoms, they also helped and they sent out the army. Yuva dhirascha mayuradvajaha. So yuva means the young, and dhiraha, the young and courageous. Mayuradvajaha sena achalayat. So he led the army. And then saha swavachobihi dhiran yodhrin preritavan. So this means, I think he was being a good leader and led the army and began the war. Mayuradvajasya nayakatve, under his leadership, swarnadhara rajena vijayaha sampraptaha. So he won the enemy state.
What is acharitam?
To begin. आचरितुं कुत्र अस्ति ओ आचरितु साहाय्यम् आचरितुं स्वसैन्यं प्रेषयन्
to get the help
yes to get the help from the neighboring kingdoms with the army astu va okay tanantaram kah patati
अहं पठामि भगिनी
अस्तु पठतु
मयूरध्वजः स्वराज्यं प्राप्य पित्रे विजयवार्तां श्रावितवान् तात युद्धात् पूर्व भवतः मनसि राजस्य उत्तरदायित्वं कस्मै देयम् मह्यम् उत्त जयतेजाय इति विकल्पस्थितिः आसीत् सम्प्राप्ति सा समस्या अपगता अहं प्रार्थयामि यत् जयतेज एव अस्य राजस्य उत्तरदायी भवतु मया जीतं वैकान्तिकराज्यं मह्यं प्रददातु इति
उत्तमं सो प्रथममस्ति मयूरध्वजः स्वराज्यं प्राप्य पित्रे विजयवार्तां श्रावितवान् सो ही टोल्ड् मयूरध्वज टोल्ड् हिस् फादर् अबौट् हिम् विनिङ्ग् द विक्टोरियस् विन् तदा तेनोक्तं सो तेन उक्तं तात युद्धात् पूर्वं भवतः मनसि राज्यस्य उत्तरदायित्वं कस्मै देयम् सो सो ही आस्क्ड द फादर् बिफोर् द वार् यु हेड् मेनी डौट्स् एण्ड् मह्यम् उत जयतेजाय इति विकल्पस्थितिः आसीत् सो नौ वि आल्सो हेव् जयतेजः एस् एन् आप्शन् सम्प्रति सा समस्या अपगता सो
दट् प्राब्लम् इस् सॉल्वड्
यस् The problem is solved. Aham. The problem is gone. The problem is solved. Aham prathayami yad jayateja eva asya rajasya uttaradayi bhavatu. Maya jitam vaikantika rajyam mahyam pradatu. So, jayateja will become the
king of this country.
King of Swarnadhara rajyam. And then I will become the king of vaikantika rajyam.
So, Bhagini, ekam prashnam. Mahyam is the chaturthi, right? Mama, to me?
Or is Mahyam, chaturthi, to me, for me. So give Vaikantika Rajyam for me.
Okay.
What does Uta mean? Mahan, Mahyam, Uta.
What does Uta means or. For me or Jayateja.
Okay.
Kasmai, again, Kasmai is a Chaturthi Vibhakti.
No, no.
Kasmai is Chaturthi, right?
Oh,
Kasmai is Kisko, to who?
Yes, for who?
Yeah, for who, right, sorry.
Kasmai for who. Okay, Uttama.
Okay. Two Chaturthi Vibhakti.
So next, correct. So next paragraph kaha patati?
I can read.
Astu patati mahoday.
Prasannaha Vikrama Bhupatihi Santoshena Mayuradvajam Alangitavan. Ekasmin Shubhadine Mayuradvajam Swarnadharayaha Simhasane जयतेजं वैकंतीराज्यसिंहासने च अभिषिक्तवान् तथैव वैकंतीराज्यं स्वर्णधाराराज्यस्य शासनादीने भविष्यत्यापि उद्घोषयत्।
अस्तु, बहु उत्तमम्। ओके, सरलमेव। प्रसन्नः विक्रमभूपतिः सन्तोषेण मयूरध्वजम् आलिङ्गितवान्। सो हेपिलि द किङ्ग् द फादर् हि हग्ड् मयूरध्वजम्। एकस्मिन् शुभदिने आन् वन् गुड् डे फैन् डे मयूरध्वजं स्वर्णधारायाः सिंहासने जयतेजं वैकंतिकाराज्यसिंहासने च अभिषिक्तवान्। सो दे गाट् ऑफिशियलि बिकेम् द किङ्ग्स् आफ् द रिस्पेक्टिव् राज्यं। तथैव वैकंतिकाराज्यं स्वर्णधाराराज्यस्य शासनाधीने भविष्यति इत्यपि उदघोषयत्। सो फ्रम् दट् डे बोत् किङ्ग्डम्स् were prospering under their ruling. The people were happy. Okay. Tanataram kaha patiti kinchit bruhat asti, a little bit longer.
Shall I read?
Okay, later read.
Okay, Pratima Bhagini patiti va?
एवं कथां श्रावयित्वा वेतालः राजन् जयतेजस्तु वास्तविकं तथा आर्थिकं च चिन्तनम् अकरोत्। अत एव सः स्वपितरं प्रतिवेशे राज्येभ्यः स्वर्णधाराराज्यं श्रेष्ठम् इति अकथयत्। तथैव यदा रुद्रकेतुः युद्धं प्राकटयत् तदा प्राणहानिः राज्यहानिः मा भवतु इति धिया तेन सूचितम् आसीत् यत् वैकंतिकाराज्यस्य सैन्यं द्विगुणितं वर्तते। वयं तेन सह सन्धिं कुर्मः इति अपि असूचयत्। किन्तु मयूरध्वज गङ्गाजलं स्वराज्ये आनीतं चेत् स्वराज्यस्य इतः अपि विकासः साध्यः इति मत्वा पितरम् अङ्गीकरयितुं यदि वयं जयं प्राप्स्यामः तर्हि नदीजलानयनं सुकरम् इति उक्त्वा पितरम् अङ्गीकारितवान्। भाग्यवशात् ते जीतवन्तः।
ओके, सो नौ सो वेतालः हस् टोल्ड् द स्टोरी टु विक्रमः and basically kind of summarizing and looking at it. So jayatejastu vastavikam tatha aartikam cha chintanam akarot. So in the story, jayatejah led the army or came up with the solution very wisely, was wise and smart. Ata eva saha sva pitaram prativeshi rajyebhyah swarnadara rajyam श्रेष्ठमित्यकथयत्। तथैव यदा रुद्रकेतुः युद्धं प्राकटयत् तदा प्राणहानिः राज्यहानिः मा भवतु। ओके, सो कीप्स् आन् गोयिङ्ग्। सो बेसिकलि लैक् समरैसिङ्ग् वित् दिस् वित् द नेबरिङ्ग् आर्मी हि वन् द वट् इस् द किङ्ग्डम् नेम् वैकंतिकाराज्यम्। एंड देन तथैव यदा रुद्रकेतुः युद्धं प्राकटयत् तदा प्राणहानिः राज्यहानिः मा भवतु इति धिया तेन सूचितमासीत् यत् वैकंतिकराज्यस्य सैन्यं द्विगुणितं वर्तते। So this one
means when Rudraketu declared the war, that time he suggested that it is best not to have pranahani, means it should not be any killing or no trouble to the kingdom. So it
loss
was his suggestion. Yeah, loss of life and any loss to the kingdom. So Vaikantika Rajasya's army becomes double. Vayam tena saha sandhi kurumaha iti api asuchayat. So he also suggested that we should make peace with them.
Yes.
Mayurudhvaja gangajalam swarajya anitam chet swarajasya ita api vikasa sadhya. So if we get the Ganga water to our kingdom, so our kingdom will develop properly. If thinking so, Pitaram Angikaraitu, making father accept this, that if we bring the water here, then Nadi Jalanayanam Sukaratyutva, it is easy to bring water. He accepted what father said. Bhagyavashati Jitavanta. And fortunately, they won the war.
Yes, correct. So that is the meaning. Okay. So Kutrapi Prashna Mastiva. So the next page is about the riddle that that Vetalaha will ask. So today, this is where we will stop. If there are any questions, then you can ask now. Idani.
Bhagini, I have one question. For this like past tense, I'm seeing some places they use word like achalayat. But then other places they use like shravatavan and, like the van and vati. So where do we use what, like abhishiktavan? So, is there any rule where you use the ta at the end and the van vati at the end, something?
There's no rule. So, you can use them both anytime, but you just have to remember that there are genders for like krita van, krita vati, but akarot, it can be used for any gender.
Okay. So, all these krita van, krita vati words, we can substitute with the... What, like for example, what would be the one for Shravitavan? Ashravit, is it?
Shravitavan.
Ashravayat.
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 So that is acceptable for instead of Shravitavan. Okay.
Yeah.
Yes.
Can I tell you something? Normally, what happens that when you are talking about the recent past, means like 1 month back or 10 days back, we use the ending past tense. But when you have to tell the story or something about the ancient times, then you use that vati and van. So that is only the difference between this. But nowadays they use both for this. But normally it is used like this.